सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र सन्धिः, किन्तु सन्धेः तत्र विवरणात् प्राक् तत्र कानिचन विषयाः तत्र केचन विषयाः तत्र वक्तव्याः सन्ति इति कृत्वा तत्र वयं तत्र अक्षरम् इत्युक्ते किं, स्वरः इत्युक्ते किम्, अयोगवाहः इत्युक्ते किं, व्यञ्जनम् अपि माहेश्वरसूत्राणि एतत् सर्वं पठितवन्तः, अपि प्रत्याहारः अपि वयं पठितवन्तः। इदानीं तत्र एकवारं तत्र प्रत्याहारस्य वाक्यं पठित्वा तत्र कोऽपि वदेत् तर्हि तत्र हा अशोभा भगिनी किञ्चित् वदति वा तत्र प्रत्याहारः नाम किम् इति उदाहरणं।
महोदय, प्रत्याहारः तत्र माहेश्वरसूत्रेषु तत्र चतुर्दशप्रत्याहाराः सन्ति, अपि च एते
सूत्राणि
सन्ति,
समीचीनं,
हा सूत्राणि सन्ति, किन्तु तत्र तत्र प्रत्याहाराः इति अपि वक्तुं शक्नुमः खलु महोदय, तत्र सूत्रेषु अपि, हा अस्तु, हा एषु सूत्रेषु किं भवति तत्र तत्र हा प्रत्याहारः इति एकक्षणं महोदय, अस्तु, एतानि सूत्राणि महेश्वरात् आगतानि इति वैयाकरणानां मतम् अस्ति, अतः माहेश्वरसूत्राणि इति उक्तम्, अपि च एते पाणिनिमहर्षिणा रचितानि सूत्राणि, अपि च एषु सूत्रेषु एतानि सूत्राणि एव अग्रे गत्वा तत्र सर्वेषां सूत्राणाम् आधारं भवन्ति, एतेषाम् उपयोगेन एव तत्र सन्धिकार्येषु सूत्राणि रचितानि, अपि च तत्र प्रत्येकस्य सूत्रस्य आदिमवर्णः अस्ति, अपि च अन्तिमवर्णः हल् वर्णः अस्ति, यस्य गणनं न भवति, अपि एषु सूत्रेषु तत्र किम् अयोगवाहाः इति सूचि ये वर्णाः सन्ति इत्युक्ते अनुस्वारः, विसर्गः, अपि च जिह्वामूलीयः, अपि च उपद्मानीयः, एते वर्णाः न योजिताः सन्ति, अतः ते अयोगवाहाः इति उच्यन्ते, अपि तत्र केवलम् आदिमवर्णस्य अन्तिमवर्णात् पूर्वं यत् वर्णः अस्ति तेषाम् एव उपयोगः भवति, अन्तिमवर्णस्य लोपः भवति
सूत्रेषु
लोपः भवति, तस्य लोपः भवति, अपि च तत्र सर्वदा एते एव आदिमवर्णाः भवेत् इति अपि नास्ति, यतोहि तत्र इक् इति आगच्छति, इक् एकस्मिन् सूत्रे इक् इत्यस्य उपयोगः,
प्रत्याहारः इति
इक् इति प्रत्याहारः भवति
इति कथम् इति किञ्चित् वदतु, इक् इति प्रत्याहारः अस्ति इति,
इदानीं तत्र प्रथमसूत्रम् आ इ उण् अस्ति, द्वितीयसूत्रं ऋ लुक् इति अस्ति, तेषु तयोः सूत्रयोः प्रथमसूत्रस्य आदिमवर्णः अकारं वर्जयित्वा तस्य विहाय इ उ अपि रु लु इति एव नीतं तत्र. अतः तत्र इकारात् आरभ्य क पर्यन्तम् इक् इति वक्तुं शक्नुमः. तथा एव तत्र अच् इति अपि भवति प्रथमसूत्रात् आरभ्य.
किन्तु तत्र प्रत्याहारस्य प्रत्याहारः केषां वर्णानां बोधः तत्र तत्र केषां वर्णानां बोधः भवति इति भवती उक्तवती. समीचीनं. हा अपि तत्र गतवर्गस्य पुनस्मरणं कृतवती. समीचीनं, धन्यवादः. हा
नाम
तत्र महेश्वरसूत्राणि सर्वम् उक्तवती. समीचीनं भगिनि. हा किन्तु तत्र इक् इति प्रत्याहारः इति कथं नाम प्रत्याहारस्य प्रत्याहारं प्रत्याहारः तत्र कदा भवति, तत्र कीदृशः अस्ति, तत्र प्रत्याहारे कति वर्णाः सन्ति?
इक् इति प्रत्याहारे
न साक्षात् प्रत्याहारे कति वर्णाः सन्ति? प्रत्याहारात् बोधः तेषां वर्णः इति न, केवलं तत्र साक्षात् प्रत्याहारे भवती उक्तवती इक् इति प्रत्याहारः खलु?
आमाम् तत्र
इति प्रत्याहारे कति वर्णः?
द्वयोः वर्णयोः एव
वर्णद्वयम् अस्ति.
वर्णद्वयमेव इत्युक्ते तत्र
प्रथमवर्णस्य वर्णस्य नियमः के?
प्रथमवर्णस्य
नियमः सूत्रेषु किमपि वर्णं प्रथमवर्णः भवितुम् अर्हति वा प्रत्याहारे?
आदिवर्णः किमपि भवितुम् अर्हति, किन्तु अन्त्यवर्णः अन्ते एव भवे अन्तवर्णः एव भवेत्.
सरि, तर्हि तत्र प्रत्याहारे तर्हि नियमः अस्ति, स प्रत्याहारे वर्णद्वयम् अस्ति खलु?
आम्.
यत्किमपि प्रत्याहार स्वीकुर्मः खलु
सर्वं
वर्णद्वयम् अस्ति तत्र अण् अक् यण् अच् हल् अल् यत्किमपि यत् कोऽपि प्रत्याहारः भवेत् साक्षात् प्रत्याहारे वर्णद्वयं स्थापितः खलु, वर्णद्वयं स्थापितम् अस्ति. तत्र प्रथमवर्णः द्वितीयवर्णः इति वदामः, तदा सारल्यं भवति. नाम तत्र कस्य नाम इक् इति प्रत्याहारः अस्ति चेत् इ इति प्रथमवर्णः, क इति द्वितीयवर्णः खलु, तादृशं तादृशं भवेत्. हा सर्, तर्हि अस्तु. इदानीं भवती बहु किमपि उक्तवती, अतः अन्य कोऽपि वदेत्, किन्तु समीचीनं भवति. धन्यवादः. समीचीनमेव भवती तत्र पुनस्मरणं कृतवती तत्र गतवर्गे किं किम् अवत् इति. तर्हि तत्र अग्रे तत्र उषास्वामिनाथन् भगिनी नमस्कारः.
तर्हि
नमस्कारः भगिनि. तर्हि तत्र प्रत्याहारे यः कोऽपि प्रत्याहारः भवेत् तत्र वर्णद्वयम् अस्ति खलु, नाम इक्
इति
प्रत्याहारः अथवा तत्र इ अपि इ वर्णः क वर्णः इति. तर्हि तत्र प्रत्याहारे प्रथमवर्णः अस्ति, द्वितीयवर्णः अस्ति. प्रथमवर्णस्य नियमः कः, अपि द्वितीयवर्णस्य नियमः कः?
प्रथमवर्णस्य कृते व्यञ्जनं नास्ति, परन्तु व्यञ्जनयुक्त स्वरः भवितुम् अर्हति, परन्तु
अन्तिमवर्णः न भवेत्.
सूत्रेषु अन्तिमवर्ण व्यञ्जनवर्णः न भवेत् इति इति प्रथमवर्णस्य नियमः.
प्रथमवर्णस्य नियमः
वर्णद्वयोः द्वितीयवर्णस्य कृते सूत्रे आदिम नाट् आदिम अन्त्य व्यञ्जनमेव भवितुम् अर्हति
इति प्रत्याहारः भवति. समीचीनं. तर्हि प्रथमवर्णः यत्किमपि यः कोऽपि वर्णः सूत्रेषु अस्ति, किन्तु अन्तिमव्यञ्जनं नास्ति तद् भवितुम् अर्हति. अपि तत्र द्वितीयवर्णः सर्वदा सूत्रेषु अन्तिमव्यञ्जनं भवेत्
वर्ण. आम्.
हा तर्हि इदानीं तत्र इक् इति प्रत्याहारे सति तत्र बोधः कति वर्णानां बोधः भवति इक् इति प्रत्याहारात्?
इक् इति प्रत्याहारे चत्वारि वर्णानां बोधकः भवति इ इति इ उ ऋ
इति समीचीनं तर्हि उत्तमं
प्रत्याहारे प्रथमवर्णं सूत्रस्य आदिमवर्णः इति नास्ति न नास्ति
तत्र आवश्यकता नास्ति आदिमवर्णः भवेत् इति नास्ति समीचीनम् अतः तत्र इक् इति प्रत्याहारः अपि भवितुम् अर्हति समीचीनं तर्हि तत्र इक् इति प्रत्याहारः तत्र इ उ ऋ इति तत् चतुर्णां वर्णानां बोधः भवति समीचीनम् इदानीं तत्र किमपि प्रत्याहार कोऽपि प्रत्याहारः अस्ति वा तत्र येन तत्र षड् तत्र षण्णां तत्र वर्णानां बोधः भवति
इङ्ग् न ए ओ ऐ औ हयवरट् हयवरल सेवन् ओके
तर्हि तर्हि अन्य कोऽपि वदेत् भवती अपि वदतु अन्य कोऽपि वदेत् तत्र यः कोऽपि इदानीं तत्र यतोहि तत्र सर्वेषां कृते लाभः एव तर्हि तत्र षण्णावर्णानां बोधः भवेत्
छव् अस्ति महोदय
किं भगिनि
छव् षण्णा
छव् कथं वदतु भगिनि
छव् अस्ति न महोदय छ ट थ च ट त
तत्र च इति तत्र नवमसूत्रं वा
छटत छटत छव्
छव्
छव् महाप्राण लेवेन्त् सूत्रं महोदय खप चटत छटत एकादश
अपि
छटत छटत छवि छवि It comes in one of the sutra.
तत्र प्रत्याहारः कः
छव् महोदय छव् छाय्
महाप्राण चकार
चकार चकार टकार थकार च ट त
समीचीनं भगिनि अस्तु महाप्राण छव्
छव्
समीचीनं भगिनि अस्तु समीचीनम्
एकस्मिन् सूत्रे अस्ति महोदय
अस्ति
नश्चव्यप्रशान्
अस्तु उत्तमम् इदानीं तत्र इदानीं उषा दीयते भगिनि भवती इदानीं वदतु तत्र अन्य तत्र वदतु तर्हि तत्र प्रत्याहारः केन एकस्य एव बोधः भवति एकस्य वर्णस्य बोधः भवति
एकस्य एव महोदय
हल् समीचीनं तत्र यदि तत्र हल् इति वदामः साधारणतया हल् इति सर्वेषां व्यञ्जनानां तर्हि अन्यत् लण् इति भवति अन्यत् कति तत्र तादृश कति प्रत्याहारः सन्ति येन तत्र एकस्य वर्णस्य एव बोधः भवति
एकस्य वर्णस्य
तत्र प्रथमसूत्रे वर्णस्य प्रत्याहारः अस्ति वा प्रथमसूत्रम् एव स्वीकृत्य उण् इति स्वीकुर्मश्चेत् केवल उकारस्य बोधः भवति एकस्य वर्णस्य एव तर्हि द्वितीयसूत्रे
लृक्
लृक् तृतीयसूत्रात् चतुर्थात् सूत्रात् तादृशं तत्र वर्णस्य बोधः भवति तत्र प्रत्याहारात् इदानीं तत्र वर्णद्वयस्य बोधः समीचीनं तादृश एतादृश अभ्यासः करणीयः तदेव तत्र इदानीं तत्र षण्णां पञ्चानाम् इति तादृशं यदि कुर्मः तदा तत्र बोधः भवति, अस्तु अस्तु अनेकाः अनेके प्रत्याहाराः सन्ति इति. अस्तु तर्हि तत्र सर्वम् एकमेवं कुर्मः. तर्हि तत्र नरेश महोदय, तत्र त्रयाणां बोधः तादृशं तादृशः प्रत्याहारः वदतु. अन् समीचीनं. तत्र कस्य बोधः भवति? समीचीनम्. अस्तु निवेदिता भगिनी, इदानीं तत्र पुनः तत्र अन्यत् कोऽपि तत्र यत्र त्रयाणां बोधः भवति
यत् प्रत्यहार यवर
यवर. समीचीनं. यत् प्रत्ययः समीचीनं. पल्लवी भगिनी, त्रयाणां बोधः उक् समीचीनं. समीचीनं भगिनि. अस्तु सुजाता भगिनी, त्रयाणां बोधः सुजाता घडदश. गश् इति प्रत्याहारः तस्मात् गडध इति तेषां बोधः भवति. समीचीनं.
समीचीनं
भगिनि. नमस्कारः भगिनि. नमस्कारः. उमा मीनाक्षी भगिनि,
किं कर्तव्यं?
प्रत्याहारः वक्तव्यः येन त्रयाणां वर्णानां बोधः भवति.
अहं निर्माणं करोमि वा?
भवति एव, भवत्याः तत्र चाय्स्. अस्तु तर्हि कवर्गीय
न आरभ्य मकारपर्यन्तं गच्छामि चेत्
त्रयाणां बोधः भवति. समीचीनं भगिनि. अस्तु इदानीम् उषा स्वामिनाथन् भगिनि भवती.
पञ्चवर्णाः जश् भवति, जब गडद
केवलं त्रयाणां
ओ त्रयाणां
यत् एतावत् न उक्तं.
घटदश ओके गश्
गश् तत्र गड तत् उक्तम् इति मन्ये.
नो देट् इस् महाप्राणः.
अन्यत् किमपि वदतु?
सर् दट्स् ओके, दट्स् ओके महोदय. सर् सो शर् अपि त्रयः वर्णाः सन्ति.
समीचीनं भगिनि. इदानीम् उषा दीपते भगिनि,
त्रीणि एव महोदय. छटतां
कुत्र अस्ति?
काप चटत थ चट
तर्हि छव् इति वा?
छव्.
अस्तु छव्. अस्तु समीचीनं. शोभा भगिनि.
आं महोदय, किं न उक्तम् एतावत् पूर्वम्? अण् उक्तम्, अपि च उक् इति अपि उक्तं खलु महोदय. तत्र ओच् ओच् इति भवति महोदय.
ओच् इति भवति. समीचीनम्. ओच् इति भवति. ओच् इति भवति. समीचीनं. वेदा भगिनि,
बश् बश् बगडदश् एक सूत्रे अस्ति, बश् एकाचो बशो बस् सूत्रे बश् ब ड द ओ चतुर्थवर्णा त्रीणि वा?
वर्णत्रयमस्ति
चेत् गडदश् गश्
गश् इति पूर्वमेव उक्तम्.
उक्तं वा? घडदश् तदपि उक्तं
वा? तत् तद् न उक्तं. तर्हि घश् इति
गडदश्
तत् तद् न उक्तं. समीचीनं. तत्र अन्ये तत्र लृ इति अपि तत्र उक् इति अतः तत्र अनेके सन्ति खलु, अनेके प्रत्याहाराः सन्ति. तत्र यट् इति अथवा वण् इति हा तत्र अनेके अनेकान् अनेकैः प्रत्याहारः
परन्तु व्यवहारे के के अस्ति तद्
हा तद् तत्र अनेके तत्र अहं न जानामि प्रायशः
शक्नुमः परन्तु व्यवहारे के के सन्ति
हा तद् न जानामि भगिनि तेषां गणनम् अस्ति इति मन्ये किन्तु सङ्ख्या न स्मरामि भगिनि
अहं चिन्तयामि द्वाचत्वारिंशत्
द्वाचत्वारिंशत् अस्तु भो महोदय धन्यवादः अस्तु
द्वि अस्ति द्वा अस्ति वा द्वि अस्ति वा महोदय
भवती वदतु
द्वि एव पठितवन्तः महोदय द्वाचत्वारिंशत् द्वाचत्वारिंशत्
अस्तु तर्हि इदानीं तत्र अग्रे सरामः तर्हि तत्र अग्रे तत्र प्रत्याहाराणां तत्र विषयद्वयं ज्ञातव्यम् इति अस्ति तर्हि तत्र पल्लवी भगिनी पठति वा तत्र पुटसङ्ख्या अस्ति सिक्स् तत्र मध्ये प्रत्याहारेषु विषयद्वयं ज्ञातव्यम् इति
प्रत्याहारेषु विषयद्वयं ज्ञातव्यम् सूत्राणाम् अन्ते विद्यमानानां स्वररहितानां व्यञ्जनानां ग्रहणं न भवति तेषाम् इत् इति संज्ञा भवति इत् संज्ञस्य लोपः भवति यथा अक् अत्र अ इ उ रु ल इत्येतेषां वर्णानां ग्रहणं भवति न तु णकारककारयोः ग्रहणम् यत्किमपि सूत्रं वयं स्वीकुर्मः क्षम्यतां यत्किमपि क्षम्यतां वा अत्र माहेश्वरसूत्रा सूत्रेषु यत् अन्तिमवर्ण अस्ति हलन्तवर्ण तस्य इत् इति वदामः तस्य इत् संज्ञा भवति तस्य लोपः अपि भवति यदि वयं किमपि प्रत्याहारः स्वीकुर्मः यथा अक् इति प्रत्याहारः अस्ति तर्हि ते तर्हि सूत्रद्वयम् अस्ति तत्र अ इ उन् तथा च रुल् परन्तु सूत्रेषु णकार यत् इत् संज्ञकः भवति पकार अपि इत् संज्ञकः भवति अतः केवलं यत् इत् संज्ञकः वर्णः भवति तत् विहाय वयं अन्यवर्णाः वर्णानां वर्णाः स्वीकुर्मः अ इ उ रु
इति एव भवति समीचीनं भगिनि नाम तत्र लोपः भवति संज्ञामान् नाम लोपः नाम तत्र न दृश्यते संज्ञा नाम नामकरणम् इति तेषां नामकरणं कुर्मः इत् इति नाम अन्तिम प्रत्येकसूत्रे अन्तिमहलन्तवर्णस्य व्यञ्जनस्य इत् इति नामकरणं कुर्मः इत् इत्युक्ते तत्र तस्य लोपः भवति यत्किमपि इत् इति वदामः तस्य लोपः भवति इत् सञ्ज्ञकस्य इत् इति यस्य नाम अस्ति तस्य लोपः भवति तस्य ग्रहणं न भवति अतः तत्र प्रत्याहारे अपि स एव नियमः तत्र इत्संज्ञकानां तत्र ग्रहणं न भवति इति समीचीनं भगिनि हा अस्तु अग्रे तत्र उमामीनाक्षी भगिनी द्वितीय अंशः
पठनं वा
हा हा आदिमवर्णौ
आदिमवर्णो नाम सूत्रेषु आद्यः वर्णः इति नार्थः किन्तु अस्माभिः आदिमत्वेन विवक्षितः अग्रे पठामि वा यथा इक् यण् चर् इत्यादिषु प्रत्याहारेषु इ य च इत्येते वर्णाः माहेश्वरसूत्रेषु आदिनाः न सन्ति व्यञ्जनानि प्रायः स्वरैः सह उच्चार्यन्ते
हा हा तावत्पर्यन्तं हा तत्र आदिमः न सन्ति इति तर्हि तत्र किञ्चित् वदतु भगिनि, तत्र अर्थः कः?
ओके, अर्थः प्रत्याहारनिर्माणसमये चतुर्दशसूत्रेषु किमपि वर्णेन आरम्भं तु कर्तुं शक्यते, परन्तु अन्तिमवर्णः यत् हल् वर्णः प्रतिसूत्रे अस्ति तदेव भवितुम् अर्हति.
तद् तद् न भवितुम् अर्हति, तत्र तद् प्रथमवर्णः न भवितुम् अर्हति खलु?
प्रथमवर्णः न भवितुम् अर्हति, प्रथमवर्णः अन्य किमपि स्वीकर्तुं शक्नुमः
हा, किन्तु केवलं तत्र सूत्रे प्रथमवर्णः अस्ति, सः एव वर्णः, प्रत्याहारे अपि प्रथमवर्णः भवेत् इति नियमः नास्ति.
नियमः नास्ति
हा, अतः तत्र आदिमवर्णः नाम सूत्रेषु आदिमवर्णः इति नास्ति, किन्तु यत्किमपि अन्तिम हलन्त तत्र व्यञ्जनं सूत्रेषु अन्तिमव्यञ्जनं विहाय अन्येषां प्रयोगः भवति. समीचीनं हा, नाम अस्माभिः तत्र आदिमवर्णः नाम सूत्रेषु आद्यः वर्णः इति न अर्थः. यदि तादृश अर्थः अस्ति चेत् तत्र अण् इति एव प्रत्याहारः भवति, किन्तु इण् इति प्रत्याहारः न भवितुम् अर्हति, किन्तु इण् इक् सर्वं सर्वे प्रत्याहाराः सन्ति इति कृत्वा तत्र यः अस्माभिः आदिमत्वेन विवक्षितः वर्णः इति अर्थः, नाम आदिमवर्णः नाम अस्माभिः विवक्षितः वर्णः, आदिमत्वेन विवक्षितः अर्थः, नाम यः वर्णः अस्माभिः चितः एषः वर्णः आदिमः वर्णः भवेत् इति अस्माकम् इच्छा अस्ति, सः वर्णः आदिमवर्णः इति वदामः, न तु सूत्रेषु विद्यमानः प्रथमवर्णः आदिमवर्णः इति अर्थः नास्ति. समीचीनं भगिनि हा, अस्तु अग्रे सुजाता भगिनि, तत्र व्यञ्जनानि प्रायः इति व्यञ्जनानि इति न न न तस्मात् प्राक् व्यञ्जनानि प्रायः इति तद्वाक्यमपि पठतु एकवारं
कुत्र
प्रायः
सर्वैः सह उच्चार्यन्ते व्यञ्जनानि प्रायः स्वरैः सह स्वरवर्णेन सह उच्चार्यमाणः अस्ति व्यञ्जनानि
उच्चार्यमाणानि सन्ति व्यञ्जनानि, नाम स्वतन्त्रतया व्यञ्जनानाम् उच्चारणं न भवति, स्वरेण सह एव तत्र भवति इति कृत्वा तत्र सर्वदा तत्र व्यञ्जनस्य उच्चारणसमये कोऽपि स्वरः भवति एव. तर्हि अग्रे
अग्रे यदा क प्लस् आ खा भवति का व्यञ्जनमस्ति, स्वरः आ अस्ति, योजनेन का भवति
तथैव
तथैव क प्लस् आ का भवति, स्वर अस्ति व्यञ्जनेन सह का इति भवति, क प्लस् इ की भवति, प्लस् इ की भवति, प्लस् ऊ कु भवति, प्लस् ऊ कु भवति, प्लस् रू क्रु भवति, प्लस् रू क्रु भवति, प्लस् ए के भवति, प्लस् ऐ खै भवति, ऐ एन् ऐ एन्
तथैव
प्लस् ओ को भवति, प्लस् ओ कौ भवति, प्लस् आ योगः अनुस्वार कं भवति, अनुस्वार सहित अनुस्वार उच्चारणसमये अपि स्वर स्वरस्य आवश्यकता भवति.
हा समीचीनं. हा अपि
प्लस् आ विसर्ग अपि स्वरस्य सहायेन उच्चारणं भवति.
समीचीनं भगिनि. हा तथैव अस्ति. नाम तत्र खम् इति वदामश्चेत् तत्र क योगः अकारः योगः इम् इति अनुस्वारः इति भवति. समीचीनं भगिनि. हा अस्तु. हा एतेषां क्रमेण
क्रमेण का का की की कु 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 के कै को कौ कं कः इति वाचनं लोके प्रसिद्धम् अस्ति. एषा
ककापङ्क्तिः
पङ्क्तः इति
इति प्रसिद्धा. पङ्क्तिः इति स्त्रीलिङ्गपदमस्ति, तर्हि तत्र पङ्क्तिः प्रसिद्धा अस्ति. प्रसिद्धा अस्ति. एषा पङ्क्तिः ककापङ्क्तिः इति प्रसिद्धा अस्ति. नाम तत्र ख आरभ्य सर्वेषां तत्र स्वराणां योजनेन तत्र ये शब्दाः तत्र ये प्राप्नुमः तेषां तत्र आवलिः तत्र पङ्क्तिः ककापङ्क्तिः इति प्रसिद्धा अस्ति. अस्तु समीचीनं. हा इदानीम् एतत् सर्वं भूमिकारूपेण तत्र स्थापिता अस्ति. इदानीं साक्षात् तत्र सन्धिः यः अस्ति तस्मिन् तत्र कार्याणि यानि सन्ति तेषां विवरणम् अग्रे दीयते. तर्हि अग्रे तत्र
धन्यवादः
भगिनि. समीचीनमस्ति. अस्तु नरेश महोदय अग्रे पठति वा.
आं महोदय. संयुक्ताक्षरं द र इत्येते व्यञ्जने द्र इत्येतत् संयुक्ताक्षरम् स्वरव्यञ्जनयोः सन्निधौ यदा विकारः भवति तदा सन्धिः इति उच्यते. विकारः नाम कस्यचित् वर्णस्य अदर्शनं कस्यचित् अन्यस्य वर्णस्य प्रयोगः वा. अत्र तु संयुक्ताक्षरां विषये अस्ति. द अस्ति, र तस्य संयोजनं द्र भवति. अपि च स्वरव्यञ्जनयोः सन्निधौ यदा विकारः भवति तदा सन्धिः इति उच्यते. स्वरा अस्ति अपि च व्यञ्जना अस्ति, तस्य संहितायां किमपि विकारः भवति तत् सन्धिः अस्ति.
तत्र विकारः नाम परिवर्तनं
भवति.
कोऽपि विकारः
परिवर्तनं कुत्रचित् वर्णस्य अदर्शनमपि भवति, कुत्रचित् भिन्न प्रयोगः अस्ति.
हा नाम अदर्शनं नाम तत्र न दृश्यते,
लोपः
इति भवति अथवा अन्यस्य वर्णस्य प्रयोगः नाम अन्यः वर्णः आगच्छति इति तादृश यदि तत्र विकारः भवति परिवर्तनं भवति तदा सन्धिः इति वदामः. सन्निधौ नाम सामीप्यं यत्र अस्ति. तत्र केवलं व्यञ्जनद्वयमस्ति चेत् तत्र सन्धिः भवति वा?
आम् तत्रापि भवति.
द अपि रकारः द्र इति तत्र सन्धिः अस्ति वा? तत्र
न, तत्तु सन्धि नास्ति, तत्तु संयुक्ताक्षरम् अस्ति. परन्तु व्यञ्जनस्य अपि सन्धिः अस्ति.
सन्धिः अस्ति, सन्धिः अस्ति. अत्र केवलं तत्र ध रकारः रकारः तत्र तयोः मेलनेन ध्र इति तत्र केवलं संयुक्ताक्षरं न तु सन्धिः. समीचीनं महोदय. हा अस्तु उत्तमम्. अस्तु अग्रे सरामः. तर्हि तत्र धन्यवादः महोदय. अग्रे तत्र वेदा भगिनी इदानीम् उदाहरणं
अस्तु महोदय, समीक्षा कुत्र यथा विनद्य योगः उच्चैः तत् तत्र तत्र एव वा यथा विनद्य योगः उच्चैः विनद्योच्चैः अत्र अत्र अ उ इत्येतयोः वर्णयोः सन्निधौ सति तयोः स्थाने ओकारः सम्पन्नः विनद्य अत्र अकार अन्तिमवर्ण अकार अस्ति तत्पश्चात् उकार अस्ति तत्र अ उ इत्यनयोः वर्णयोः सन्निधौ समीपमस्ति चेत् तत्र स्थाने तयोः स्थाने द्वयोः स्थाने अकार उकारस्थाने ओकारः सम्पन्नः अयं च विकारः तत्र विकारः भवति इत्युक्ते अकार अकारस्य उकारस्य स्थाने ओकार आयाति तस्य अकार
विकारः नाम परिवर्तनं विकारः भवति तत्र
तस्य परिवर्तनं भवति
परिवर्तनं भवति परिवर्तनं कीदृशं परिवर्तनम् इति विषये अग्रे दीयते किन्तु इदानीं विकारः परिवर्तनम् इति भवति
अतः
अपि तत्र ओकारः सम्पन्नः इत्युक्ते किम् ओकारः सम्पन्नः इत्युक्ते
कुत्र ओकारः सम्पन्नः सम्पन्नः इत्युक्ते अकार उकारस्थाने तस्य ओकारस्य किं किं वदामि जननमस्ति आगच्छति अयं च विकारः एषः सन्धिः
अतः एषः सन्धिः नाम तत्र अत्र सन्धिः तत्र पूर्वं किम् उक्तम् आसीत् स्वरव्यञ्जनयोः सन्निधौ यदा विकारः भवति
तदा सन्धिः इति उच्यते
अत्र विकारः अभवत् खलु तत्र विनद्य योगः उच्चैः तत्र विनद्योच्चैः अतः विकारः अभवत् अतः अत्र सन्धिः
इति नाम
हा इति अस्ति इदानीं
किन्तु
समीचीनं भगिनि इदानीम् एकनिमिष एकनिमिष अतः तत्र अत्र सन्धिः इति अस्ति इदानीं तत्र यदा तत्र गीता प्रवेशः पठामः तत्र एकः क्रमः यद् एकस्य क्रमस्य अनुसरणं कुर्मश्चेत् लाभः भवति इति चिन्तनमस्ति नाम तत्र गीताप्रवेशे तत्र किं कुर्वन्ति तत्र उदाहरणार्थं पदं तत्र भगवद्गीतायां विद्यमानानां श्लोकानाम् एव तत्र प्रयोगः कुर्वन्ति अतः तत्र सङ्ख्य किमस्ति तत्र
प्रथमाध्यायः अध्याये द्वादश श्लोकमस्ति
श्लोकः अस्ति हा तर्हि तत्र एषः क्रमः भवति चेत् लाभः अस्ति इति चिन्तनं यदा यदा तत्र उदाहरणं पश्यामः श्लोकस्य पठनं कुर्मः अपि किञ्चित् तस्य विषये चिन्तनं लघुचिन्तनं कुर्मः तर्हि तत्र तर्हि
तस्य सञ्जनयन् हर्षं कुरु वृद्धः पितामहः सिंहनादं विनद्योच्चैः शङ्खं दद्मौ प्रतापवान् इति सिंहनादं विनोद्योच्चैः तत्र तस्य अस्ति तत् किं वदति इत्युक्ते तस्य सञ्जयन् हर्षं कुरु वृद्धः पितामहः सिंहनादं विनोद्योच्चैः शङ्खं दद्मो प्रतापवान् गुरुवृद्धः पितामहः तस्य सञ्जयन् हर्षम् इत्युक्ते तस्य इत्युक्ते कः दुर्योधनः वा दुर्योधन
समीचीनं दुर्योधनस्य हर्षं जनयति नाम तत्र भीष्मः दुर्योधनः सन्तुष्टः भवेत् इति चिन्तनं करोति अतः तत्र तस्य सन्तोषं जनयति हर्षं नाम सन्तोषं जनयति कथं सः जनयति
तत्र भीष्मपितामहः सिंहनादम् इव सिंहनादं
करोति विनद्य नाम नाम तत्र सः विनद्यति
शङ्खं दद्मौ प्रतापवान् इत्युक्ते शङ्खम् अपि किं किं वदामि शङ्खं नादयति
तत्र धमति धमति शङ्खं धमति
धमति वा ओके शङ्खं धमति विनोदोच्चैः इत्युक्ते उच्चैः
धमति इति एव रूपम् अस्ति खलु कोऽपि स्मरति वा तत्र
किम
इति धातुः तत्र कोऽपि स्मरति वा तत्र
धमति एव अस्ति
धमति अस्तु अस्तु धन्यवादः
तदेव तत्त्व तत्र दद्मौ इति
तत्र दद्मौ इति तत्र रूपं किम् अस्ति तत्र प्रायशः तत्र
दद्मौ ध्वधातु
ध्मा इति धातु लिट् रूपं महोदय
लिट् रूपम् अस्ति अस्तु धन्यवादः भगिनी हा अस्तु हा अत एव तत्र तत्र परिचितः रूप परिचितं रूपं नास्ति लिट् लकारः अस्तु
लिट् लकारः तदेव द्वित्वं तत्र भवति दद् दद् आयाति दद्म
समीचीनं भगिनि हा हा तथैव अस्ति हा अतः तत्र भीष्मपितामहः तत्र शङ्खं धमति अपि तत्र दुर्योधनस्य सन्तोषं जनयति जनयति सिंहनादमपि करोति तर्हि अस्माकं तत्र विनद्य तत्र विनद्य इति तत्र बीत् उपसर्गः नद् इति धातुः तत्र तर्हि उपसर्गसहित क्रियापदं तर्हि यबन्तरूपं विनद्य उच्चैः उच्चैः इति अव्ययम् उच्चैः तर्हि विनद्ययोगः उच्चैः
उच्चैः
विनद्योच्चैः इति भवति समीचीनं तत्र सन्धिः सन्धिकार्यं तत्र अस्ति
भवति तत्र
अस्ति समीचीनं भगिनि हा उत्तमम् अस्तु इदानीम् अग्रे तत्र अन्य कोऽपि पठेत् तर्हि तत्र अग्रे निवेदिता भगिनि
आम् आम् किन्तु किम् अधिकम् अकुर्वत् किम् अधिकम् अकुर्वत् किं कुर्वत् अत्र किमकुर्वत् अत्र म अ इति वर्णयोः सन्निधो सत्यपि कोऽपि विकारः न सम्पन्नः केवलं मकार अधिकम् अ इत्यनयोः स्थाने म इति लिखितम् अतः एषः न सन्धिः सन्धिः यदा भवति तदा तत्र आदेशः
सन्धिः
यदा भवति तदा तत्र आदेशः आगमः लोपः प्रकृतिभावः वा भवति
इति तत्र सन्धिकार्यं कार्याणि यानि सन्ति तेषां विवरणम् अग्रे दीयते किन्तु इदानीं तत्र अस्मिन् उदाहरणे तत्र किं लिखितमस्ति किं योगः अकुर्वत किम् अकुर्वत तत्र किं भवति
किं मकार हल व्यञ्जन हलन्तमस्ति
हा तत्र मकार किम् इति पदस्य अन्तिमवर्णः
मकारमध्ये किं शब्दस्य मकारः अन्तिमवर्णः अस्ति तथा अकुर्वत मध्ये अकारः प्रथमवर्णः अस्ति आदिवर्णः अस्ति अन्त्य मतलब अन्त्यवर्ण अधिकम् आदिवर्ण मध्ये सन्निधि भवति किन्तु कोऽपि परिवर्तनं न भवति
वर्णयोः सन्निधौ सत्यपि नाम सन्निधौ सत्यपि नाम सति सन्निधौ सति नाम सन्निधिः तस्य सन्निधौ इति सप्तमी विभक्ति खलु सन्निधौ इत्युक्ते सन्निधिपदस्य नाम यदा सन्निधिः अस्ति तदापि विकारः नाम किमपि परिवर्तनं न भवति केवलं किं भवति मकारः अपि अकारस्य स्थाने
व्यञ्जन मकार हलन्तमस्ति मध्ये अमिलित्वा मकार पूर्णं भवति
हा इति अतः तत्र केवलं व्यञ्जनमासीत् स्वररहितव्यञ्जनमासीत् इदानीं तत्र स्वरयोगव्यञ्जनं नाम तत्र मकारः इति भवति अत्र परिवर्तनं किमपि नास्ति इति कृत्वा अत्र सन्धिः नास्ति एषः सन्धिः नास्ति समीचीनं भगिनि. इदानीं तत्र प्रथमश्लोकः भगवद्गीतायाम् एकवारं पठतु भगिनि.
धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुत्सवः मामकः पाण्डवाश्चैव किम कुर्वत संजय.
अस्तु तर्हि किञ्चित् वदतु भगिनि तर्हि तत्र
अत्र धृतराष्ट्र तथा संजय मध्ये संवादः भवति. संजय धर्मक्षेत्रे कुरुक्षेत्रे
तत्र योद्धाः नाम तत्र युद्धं कर्तुं ये जनाः
हे संजय मम पुत्र तथा च पाण्डुपुत्र युद्धं कर्तुं
उत्सुकाः सन्ति.
धर्मक्षेत्रे तथा च धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य मिलित्वा किम् अकुर्वन्
सर्वे तत्र सन्ति धर्मक्षेत्रे कुरुक्षेत्रे तत् क्षेत्रं धर्मक्षेत्रम् अस्ति तत्र ते सर्वे सन्ति. समीचीनं. नाम पाण्डवाः अपि सन्ति मम पुत्रः सर्वे सन्ति तत्र किम् अकुर्वत नाम किं कुर्वन्ति सन्ति
संजयम् अपृच्छत्.
संजयम् अपृच्छत् किं कुर्वन्ति ते इति सः धृतराष्ट्रः सञ्जयं पृच्छति. समीचीनं भगिनि. तर्हि उत्तमम् अस्तु. इदानीम् अग्रे तत्र धन्यवादः भगिनि. अग्रे तत्र एतावत् तत्र अस्तु वदतु भगिनि अग्रे.
आदेशः सन्धिः यदा भवति तदा तत्र आदेशः आगमः लोपः प्रकृतिभावः वा भवति. प्रथमम् अस्ति आदेशः. पूर्वं स्थितस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उदयः आदेशः.
अर्थः कः?
पूर्वं स्थितस्य इत्युक्ते स्थितस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उदयः भवति. प्रथमपदस्य पूर्वं स्थितस्य यदा पूर्वम् एकः वर्णः अस्ति तत् स्थाने सन्धि भूत्वा अन्यवर्णस्य उदयः भवति तदेव आदेशः.
एकस्य वर्णस्य स्थाने नूतनवर्णस्य नूतनवर्णः आगच्छति चेत् आदेशः इति वदामः. तत्र तर्हि तत्र एकः वर्णः गच्छति नूतनवर्णः आगच्छति तदा एव आदेशः इति वदामः.
पश्यत यदि योगः अपि यद् योगः इका ई योगः अयोगः पि.
तर्हि तत्र यदि इति तत्र अन्तिमवर्णः कः?
यदि इति पदस्य अन्तिमवर्णः इकारः. अपि
इति पदस्य अपि इति पदस्य प्रथमवर्णः
अकारः आदिमवर्णः. अतः यद् योगः इ अनन्तरं योगः अयोगः पि मिलित्वा यद्यपि यद्योगः यकारयोगः अकारयोगः पि इति नूतनपदम् आगच्छति. यद्यपि इति
परिवर्तनम् अभवत् खलु तर्हि तत्र
इकारस्य स्थाने यकारः आगच्छति.
इकारस्थाने यकारस्य आदेशः
नूतन
आदेशः अस्ति तत्र यद्यपि. समीचीनम्. इदानीं तत्र श्लोकः
स्थाने यकारवर्णः आगतः अस्ति एषः आदेशः इति.
यकारस्य आदेश तत्र आदेशः भवति ईवर्णस्य स्थाने यवर्णः आगतः अस्ति.
वदनीयं वा य इति वदनीयं वा महोदय?
किं भगिनि?
यद् यकार इति वदनीयं वा अथवा य इति वदनीयं वा?
द्वयमपि साधु इति मन्ये भगिनि. तर्हि तत्र अहं तत्र यकारः इति वदामि किन्तु तत्र य वर्णः इति अपि तत्र यथा लिखितं तद् द्वयोः प्रयोगः भवति इति मन्ये भगिनि. तर्हि तत्र द्वयमपि कर्तुं शक्नुमः, वक्तुं शक्नुमः.
अस्तु,
हा इदानीं तत्र श्लोकः यः अस्ति श्लोकं पठतु.
138 अस्ति. यद्यप् एतेन पश्यन्ति लोभोपहत चेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्. यद्यपि यद्यपि
यदि योगः अपि यद्यपि
यद्यपि एते न पश्यन्ति न एते न पश्यन्ति इत्युक्ते एते न पश्यन्ति लोभोपहत चेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्. ये इत्युक्ते एते इत्युक्ते के यद्यपि एते
एते न पश्यन्ति यद्यपि यद्यपि एते न पश्यन्ति तत्र एते इत्युक्ते के तत्र लोभोपा तत्र लोभ उपहत चेतसः नाम तत्र येषां चेतलोभेन उपहतम् अस्ति. उपहतं नाम तत्र चेतः चेतः इत्युक्ते तत्र मनः इति चिन्तयतु. हा मनः लोभेन तत्र लोभः एव तत्र तस्य तस्य किं तत्र प्रधानमस्ति. तत्र लोभः एव प्रधानमस्ति तत्र मनसि नाम तत्र
आशा
लोभेन उपहतम् अस्ति. तादृशपुरुषः यः अस्ति सः लोभोपहतः तत्र लोभेन उपहतः चेतः यस्य अस्ति. किन्तु अत्र बहुवचने अस्ति. हा तत्र येषां चेतो लोभ उप लोभेन उपहतम् अस्ति ते यतोहि तत्र एते इति अस्ति बहुवचने अस्ति. हा तत्रापि तत्र हा बहु किमपि अस्ति वक्तव्यं किन्तु हा चिन्ता मास्तु. हा किन्तु अग्रे कुलक्षय कृतं
दोषं मित्रद्रोहे च पातकं. दोषम् इत्युक्ते अनर्थ कुलक्षय कृतं च पातकं
मित्रद्रोहे तत्र नाम एतत् सर्वं तत्र येष तत्र ये जनाः तत्र लोभेन लोभेन पीडिताः जनाः सन्ति ते एतत् सर्वं न पश्यन्ति नाम कुलक्षयकृतं दोषं मित्रद्रोहम् एतत् सर्वं तत्र न पश्यन्ति. पातकं येन तत्र पतनं भवति तादृशं तत्र नाम तत्र पापं पातकं नाम पापम् एतत् सर्वं ते न पश्यन्ति. तत्र केवलम् उदाहरणानि दत्तानि सन्ति पापस्य.
अस्तु महोदय.
तर्हि तत्र अपि यदि अपि योगः यद्यपि इति अस्ति. अस्तु समीचीनम्. अस्तु अग्रे तत्र हा तत्र उषास्वामिनाथन् भगिनी भवती अग्रे पठति वा.
आं महोदय. आगमः वर्णात् पूर्वं परं वा अन्यस्य वर्णस्य उदयः आगमः एतां प्रक्रियां पश्यत. अनिच्छन् योगः अपि अनिच्छ योगः नकारः अपि इत्यस्य कृते अकारयोगः पि इति अनिच्छ अन्तिमनकारस्य नकारः अस्ति. अकारः कृते नकारः अकारात् पूर्वं नकारः योजितः भवति. अकारः इति नकार अकारः इति भवति. प्रथमनकारः अस्ति अकारात् पूर्वम् अपि नकारः आगच्छति. आगमः तदेव आगमः इति भवति. अनिच्छन् योगः अनिच्छन् योगः नकारः योगः अकारः योगः अपि अनिच्छन्नपि इति द्वयो नकारः द्वयम् अस्ति. नकारस्य द्वित्वं भवति. तदेव आगमः इति भवति. अत्र नकारात् पूर्वम् अपरः नकारः उत्पन्नः अस्ति एषः आगमः इति भवति. वर्णात् पूर्वम् अथवा वर्णात् परम् अथवा पूर्वं वा अन्यस्य वर्णस्य अन्यस्य वर्णस्य आगमः भवति चेत् तदेव आगमः अन्यस्य वर्णस्य उदयः इति आगमः इति भवति.
हा नाम तत्र आदेशे किं भवति? एकः वर्णः गच्छति, अन्यः वर्णः
आगच्छति.
किन्तु आदेशे इदानीम् आगमे किं भवति?
आगमे
वर्णाः सन्ति ते
तिष्ठन्ति
तिष्ठन्ति,
परन्तु नूतनवर्णम् अपि आगच्छति
तदा एव आगमः इति वदामः. यत्र पूर्वस्थिताः वर्णाः तिष्ठन्ति किन्तु नूतनवर्णः आगच्छति तदा आगमः
इति भवति
इति वदामः. समीचीनं भगिनि.
मित्रवत् भवति खलु महोदय?
मित्रवत्
आदेशः शत्रुवत्
महोदय. अस्तु इदानीं तत्र भगिनी तत्र श्लोकः अपि अस्ति, तं श्लोकं पठतु एकवारं.
तृतीय अध्याये 36 इति अस्ति. तृतीय अध्याये 36 अर्जुन उवाच अतखेन प्रयुक्तोऽयं पापं चरति पुरुषः अनिच्छन्नपि वाष्णेय बलादिव नियोजितः. अतखेन अर्जुन कृष्णं कृते पृच्छति.
यत्किमपि सरलरीत्या वदतु भगिनि, आङ्ग्लभाषायां तत्र दृष्ट्वा किञ्चित् संस्कृतेन वदतु तावदेव, केवलं किं तत्र अभ्यासार्थं तत्र श्लोकः दत्तः अस्ति खलु, तर्हि तत्र तस्मिन् विषये किञ्चित् वदामश्चेत् लाभः तावदेव.
अर्जुनः कृष्णं कृते पृच्छति अनिच्छन् इति ऐ मीन् ईवन् दो न इष्टं भवति परन्तु मनुष्यः न इच्छति परन्तु केन प्रयुक्तः इति परन्तु स्टिल् कार्यं करोति मनुष्यः कार्यम् अनिच्छन् कार्यम् अनिच्छन् अपि पापकार्यं करोति
पापकार्यं
करोति
किमर्थम् एतत्
किमर्थम्
अर्जुनः पृच्छति
किं बलात् बलात् इव
तत्र कस्य बलात्
कस्य बलात्
अयं पुरुषः
पापं करोति
पापकार्यं करोति, सः न इच्छति किन्तु अपि सः पापकार्यं करोति, अतः तत्र तस्य कारणं किम् इति वदतु. तावदेव भगिनि, तादृशं प्रत्येके श्लोके बहु किमपि अस्ति किन्तु गीताप्रवेशः किञ्चिदपि यदि तत्र श्लोकस्य एकवारं तत्र पठनं कुर्मः समीचीनं भवति, श्लोकमपि दृष्टवन्तः खलु इति तावदेव.
अस्तु महोदय.
समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तत्र इदानीं तत्र शोभा भगिनी अग्रे पठति वा?
आम् महोदय. अग्रिमः विषयः लोपः, वर्णस्य अदर्शनं लोपः. एतां प्रक्रियां पश्यता समवेताः योगः युयुत्सवः इत्यस्य समवेता योगः विसर्गः योगः युयुत्सवः तस्मात् समवेता योगः युयुत्सवः समवेता युयुत्सवः इति अन्तिमरूपं तत्र विसर्गस्य लोपः दृश्यते. अतः तत्र लोपः इति वर्णस्य अदर्शनम् इत्युक्ते तत्र विसर्गः आसीत् किन्तु तस्य परिवर्तनम् अथवा तस्य तस्मिन् स्थाने किमपि आदेशः वा अथवा तस्मिन् तस्मात् पूर्वम् आगमः वा न भवति न अभवत् केवलं विसर्गः अदृश्यः अभवत् अतः तं लोपः इति वदामः अत्र समवेता इत्यतः परस्य विसर्गस्य अदर्शनम् एषः लोपः तदेव लोपः इति उच्यते इति
तर्हि तर्हि लोपः अपि तत्र आदेशः आगमः तयोः मध्ये कः भेदः
लोपः आदेशः इत्युक्ते तत्र एकस्मिन् वर्णस्य स्थाने अन्यः वर्णः आगच्छति आदेशरूपेण आगच्छति
अत्र अन्य तादृशम् अस्ति वा
तत्र नास्ति तत्र विसर्गः अस्ति तस्य स्थाने किमपि अन्यः वर्णः न आगच्छति अपि च तस्मात् पूर्वम् आगमः इति आगमरूपेण अपि अन्यः वर्णः न आगच्छति यथा आगमे आगमे एकः नूतनवर्णः आगमरूपेण आगच्छति इत्युक्ते यत्र यत् वर्णः पूर्वम् आसीत् तस्मात् पूर्वम् अन्यः वर्णः तत्र मित्रवत् आगच्छति इति नूतनवर्णः हा नूतनवर्णः यत् पूर्वं न आसीत् तत्र आगमिष्यति तत् अस्ति आगमः आदेशः इत्युक्ते पूर्वस्थितस्य वर्णस्य तत्र तत् अवगच्छति तस्य स्थाने अन्यः वर्णः आगच्छति किन्तु लोपः इति आदेशः अपि नास्ति आगमः अपि नास्ति तत्र केवलं यत् वर्णः अस्ति तस्य लोपः इति तत्र विसर्गस्य लोपः अभवत्
विसर्गस्य लोपः विसर्गस्य
अपगच्छति
अपगच्छति विसर्गः अपगच्छति केवलं तस्य स्थाने नूतनवर्णः नास्ति अपि तत्र सर्वे वर्णाः सन्ति पूर्वस्थिताः वर्णाः सन्ति नूतनवर्णः आगच्छति इति अपि नास्ति तर्हि लोपः भिन्नः अस्ति लोपः आगमः नास्ति आदेशः नास्ति नूतनरूपपरिवर्तनम् अस्ति अतः तत्र आदेशः भिन्नपरिवर्तनम् आगमः भिन्नपरिवर्तनं लोपः अपि भिन्नपरिवर्तनं
भिन्नपरिवर्तनं
परिवर्तनं त्रयम् अस्ति अत्र तत्र एतं श्लोकं पठितवन्तः किन्तु पुनः एकवारं पठतु भगिनि
प्रथमाध्याये प्रथमश्लोकं धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामक पाण्डवाश्चैव किमकुर्वत सञ्जया इति धृतराष्ट्रः सञ्जयम् उद्दिश्य पृच्छति तस्य पुत्राः अपि च पाण्डवपुत्राः कुरुक्षेत्रं गतवन्तः आसन् अपि च तत्र युद्धम् अपि प्रचलत् युद्धः प्रचलत् अस्ति प्रचलः
युद्धं कर्तुम् इच्छन्ति
कर्तुं
हा
तत्र युयुत्सवः इत्युक्ते युद्धं कर्तुम् इच्छा येषाम् अस्ति ते युयुत्सवः इति इच्छन् अस्ति ते तत्र समवेता इत्युक्ते तत्र तेषां समावेशः अस्ति कुरुक्षेत्रे तत्र ते इदानीम् अथवा के तत्र लङ् रूपं किम् अकुर्वत सञ्जय एतावत् पर्यन्तं ते किम् अकुर्वत
इति
सञ्जयम् उद्देश्य पृष्टवान् धृतराष्ट्रः
तत्र समवेताः युयुत्सवाः युयुत्सवः इति भवति
भवति तत्र समवेताः इत्यस्य विसर्गस्य लोपः दृश्यते
दृश्यते
अदर्शनम्
युयुत्सव हा समीचीनं युयुत्सवः इति विशेष्यं
समवेताः इति विशेषणं
विशेषणं
महोदय
अथवा तत्र प्रायशः तत्र मामकाः पाण्डवाः एव तत्र विशेष्यम् इति अपि वक्तुं शक्नुमः युयुत्सवः इति अपि विशेषणं भवति किन्तु अत्र यत् अस्ति तत्र सम्बन्धः अस्ति समवेताः युयुत्सवः समीचीनं भगिनि अस्तु उत्तमं धन्यवादः भगिनि अस्तु अग्रे तत्र आम् पल्लवी भगिनी अग्रे
आम् प्रकृतिभावः निमित्ते सत्यपि लोपादेः अभावः प्रकृतिभावः यथा अनादि अधिक उभौ अनादकार अधिक ईकार अधिक उ अधिक भौ अनादि उभौ अत्र इकार उकार एतयोः वर्णयोः सन्धौ यकारस्य उदयः भवेत् किन्तु न भवति एषः प्रकृतिभावः आदेशः आगमः लोपः प्रकृतिभावः वा यदा भवति तदा तस्य कार्यस्य सन्धिकार्यम् इति व्यवहारः अत्र अत्र इकार उकार अस्ति तर्हि यकार भवितुम् अर्हति परन्तु तत्र सन्धिकार्यं न अभवत् अतः प्रकृतिभावः इति उच्यते तथैव तिष्ठति तत्र
प्रकृति नाम मूलरूपं यदस्ति तदेव रूपं भवति तत्र परिवर्तनं न भवति प्रकृति प्रकृति नाम मूलं समीचीनं तत्र अनादि योगः उभौ यकारः भवेत् किन्तु तत्र इकार उकारः तत्र यकारः भवेत् किन्तु तत्र न भवति
न
भवति समीचीनं तर्हि तत्र श्लोकः ये अस्ति तमपि एकवारं पठतु भगिनि
मम समीपे अस्ति प्रकृतिं पुरुषं चैव
तस्मिन्नेव अस्ति प्रकृतिं पुरुषं चैव विद्धि अनादि उभौ अपि
अत्र अस्ति विद्धि अनादि उभवापि उभौ अपि विकारांश्च
उभौ अपि
गुणांश्चैव विद्धि प्रकृति सम्भवान् अर्थः अहं न जानामि महोदय
हा नाम तत्र अस्तु तत्र अन्य कोऽपि वदति वा चिन्ता मास्तु सरलरूपेण कोऽपि वदतु केवलं तत्र सर्वेषां कृते लाभः इति कृत्वा तावदेव कः इच्छति वा वक्तुं कोऽपि वा वक्तुं शक्नोति
अहं प्रयत्नं करोमि महोदय
अस्तु वदतु भगिनि
तत्र किं 13th अपि
1319
एकक्षणं निमित्ते सत् अनादि उभौ क्षमताम् उभाव अपि इति खलु तत्र अनादि उभौ तत्र प्रकृतिं पुरुषं चैव तदेव तदेव वा महोदय
सत्यं भगिनि
तत्र किन्तु अनादि उभौ इति नास्ति तस्मिन् क्षमताम्
अस्ति अस्ति
प्रायः ओ विद्यनादि अस्ति प्राप्तम् अस्तु पठामि वा भगिनि प्रकृतिं पुरुषं चैव विद्यानादि उभावपि तत्र किन्तु तत्र सन्धिः अभवत् खलु तत्र अतः
विद्यानादियोगः उभौ तत्तु अनादि उभौ इति एव तिष्ठति खलु
अस्मिन् पुस्तके विद्यानादि इति तत्र सन्धिं कृत्वा दत्तमस्ति महोदय
तत्तु तत्तु समीचीनं किन्तु अत्र प्रकृतिभावः कुत्र अस्ति अनादियोगः उभौ
उभौ अपि तत्र तदेव तिष्ठति अनादियोगः उभौ उभौ इत्यस्य तत्र अनादि इत्यस्य ईकारस्य अपि च उभौ इत्यस्य उकारस्य द्वयोः वर्णयोः सन्निधौ सन्धिः भवितुम् अर्हति
हा न भवति तत्र तत्र इकारस्य यकारः न आगच्छति उदयः इकारस्य यकार उदयः न भवति ते पदे तथा एव तिष्ठतः अनादि अपि उभाव अपि इति
समीचीनं
अपि च विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् इति श्लोकं तत्र अर्थः कः इति चेत् तत्र प्रकृतिपुरुषं च एव विद्धि अनादि उभौ अपि इति इत्युक्ते तत्र प्रकृति अपि पुरुषः च द्वौ उभौ अपि इति तत्र उभौ अपि इति उभौ अपि विद्धि इत्युक्ते जानातु अनादि तत्र अनादि इति दीर्घ द्विवचने अस्ति उभयोः कृते हा
तर्हि प्रकृति अपि अनादि
प्रकृति अपि अनादि पुरुषः अपि अनादि अनादि अतः विकाराः च जानातु इति जानातु इति अर्जुनम् उद्दिश्य कृष्णः वदति विकारांश्च गुणांश्च एव विद्धि प्रकृतिसम्भवान् इति तत्र विकारांश्च इत्युक्ते इदानीं अत्रापि दृष्टवन्तः विकारः इत्युक्ते तत्र परिवर्तनम् इति अपि भवति
अत्रापि विकारः
विकारः एव अस्ति विकाराः अपि च गुणाः पुनः तत्र विद्धि जानातु प्रकृतिसम्भवान् इति इत्युक्ते सम्भवः इत्युक्ते उद्भवः इति अथवा तत्र प्रकृतेः आगताः इति प्रकृतेः
जन्यत् इति
हा जन्यः प्रकृतिजन्यः इति
प्रकृतिजन्यः इति
प्रकृतिजन्यः इति उक्तवान् अतः तत्र
सम्भव
इति
बहुवचने नाम तत्र गुणाः अपि विकाराः तत्र प्रकृतिसम्भवाः नाम
तत्र यतोहि तत्र सर्वत्र द्वितीया एव अस्ति विकारांश्च गुणान् विकारान् च गुणान् च विद्धि प्रकृतिसम्भवान् इति
नाम
त्वं जानातु
किं जानातु तत्र गुणान् जानातु विकारान् जानातु विकारान् गुणान् तर्हि कर्मपदं विकारान् गुणान् कर्मपदम् अतः तत्र तान् जानातु कीदृशः
प्रकृतिसम्भवान् विकारान् गुणान् च एव जानातु
तत्र नाम गुणाः अपि प्रकृतिसम्भवाः सन्ति विकाराः अपि
प्रकृतिसम्भवाः
इति त्वं जानातु इति अस्ति अस्तु तत्र बहु किमपि अस्ति प्रत्येकस्मिन् श्लोके किन्तु किञ्चित् परिचयत्वेन पश्यामः तावदेव अस्तु धन्यवादः भगिनि
धन्यवादः महोदय
अस्तु अग्रे इदानीं तत्र अग्रे सरामः तर्हि तत्र उमा मीनाक्षी भगिनी अग्रे उमा मीनाक्षी भगिनी गतवती वा अस्तु अस्तु तर्हि तत्र अस्तु तर्हि तत्र सुजाता भगिनी अग्रे पठतु भगिनि
महोदय पठामि अधोनिर्दिष्टेषु स्थानेषु आदेशः आगमः लोपः प्रकृतिभावः इत्येतेषु अन्यतमं सन्धिकार्यं भवति तत् किम् इति पुरतः रिक्ते स्थाने यदोदाहरणं लिखत आचर्यवत् च आचर्य वा योगः तकारः योगः च आचर्य वा योगः चकारः योगः चकारः आचर्यवत् च आदेशः उदाहरणम्
इति उक्तं
समीचीनम् उदाहरणम्
आदेशः इति समीचीनं वा तत्र
आदेशः अन्यवर्णस्य विकारः भवति तत्तु आगमः इति भवति
आगमः नास्ति
एकैक भेदवर्णे एकनिमिषः अस्तु तत्र सुजाता भगिनी तर्हि तत्र आदेशः कदा भवति आगमः तयोः मध्ये तत्र कः भेदः
आदेशः अन्यवर्णः भवेत् विकारः भवेत् वर्णस्य आगमः
नाम तत्र विकल्पद्वयमस्ति चाय्स् तत्र एकः वर्णः गच्छति अन्यः वर्णः आगच्छति
आगच्छति
सः आदेशः वा अथवा वर्णाः ये वर्णाः सन्ति ते तिष्ठन्ति नूतनवर्णः आगच्छति
नूतनः आं महोदय
अत्र ये वर्णाः पूर्वं सन्ति ते तिष्ठन्ति नूतनवर्णः आगच्छति वा अत्र
नूतनवर्णः तकारस्य
न किन्तु ये वर्णाः पूर्वं सन्ति ते तिष्ठन्ति वा ये वर्णाः
सन्ति
तत्र वर्णद्वयं किं किम् अस्ति वदतु तत्र
तकारः योगः चकारः
पूर्वम् आसीत् पूर्वम् आसीत् इदानीं किम् अस्ति तत्र कार्यानन्तरं किम् अभवत्
कार्यानन्तरम् यकारः यकारः
अस्ति चकारः अस्ति पुनः चकारः अस्ति खलु
आम् आं महोदय
अतः तत्र किमपि कोऽपि वर्णः गतः वा
न गतः
तकारः कुत्र अस्ति
तकारः नास्ति महोदय लोपः अस्ति वा
तकारः गच्छ तत्र तकारः अपगच्छति खलु
अपगतः
अस्ति खलु अतः तकारः इदानीं पूर्वम् आसीत् इदानीं नास्ति खलु
नास्ति लोपः
तस्य स्थाने न लोपः इति मा वदतु तत्र लोपः इति कदा वदामः यदा एकः वर्णः गच्छति किन्तु नूतनवर्णः नास्ति चेत् लोपः इति वदामः किन्तु तकारः इदानीं नास्ति नूतनवर्णः आगतः अस्ति वा
तकारस्य स्थाने चकारः
तकारस्य स्थाने चकारः अस्ति तर्हि तत्र किम् अस्ति आदेशः वा आगमः वा लोपः वा किम् अस्ति
आदेशः आदेशः भवति महोदय
इति लिखितमस्ति किन्तु भवती वदतु किमर्थम् आगमः नास्ति
आगमः नास्ति परिवर्तनं भवति इत्यनेन आगमः अस्ति चेत् परिवर्तनं न भवति
आगमः इति आगमात् मध्ये परिवर्तनं भवति केवलं प्रकृतिभाव तत्र परिवर्तनं न भवति आगमः अस्ति चेत् तत्र किं भवति अस्तु तत्र अन्य कोऽपि वदतु तर्हि इदानीं वेदा भगिनी
अन्यवर्णः
एकनिमिष भगिनी तत्र वेदा भगिनी सहायं करोतु आगमः इत्युक्ते किं भवति
आगम इत्युक्ते वर्णः तिष्ठति परन्तु तस्य मध्ये कोऽपि नूतनवर्ग वर्णः आयाति तदेव आगम इति उच्यते आदेशः इत्युक्ते
इदानीं भगिनि भगिनि एकनिमिषः तर्हि आदेशः आगमः लोपः आगमः इति स्थाने नूतनवर्णः आगच्छति ये वर्णाः स्थिताः सन्ति ते तिष्ठन्ति अत्र ये वर्णाः ते तिष्ठन्ति अथवा न तिष्ठन्ति अत्र
तिष्ठन्ति तकार चकार तिष्ठन्ति पर तकारस्य रूपः
तिष्ठन्ति नाम कार्यानन्तरमपि तिष्ठन्ति इति तिष्ठन्ति नाम न सन्ति खलु कार्यानन्तरं तिष्ठन्ति नाम कार्यानन्तरमपि
परिवर्तनं भवति
तर्हि किं भवति तकारस्य स्थाने
चकार आयाति
तदा तकारस्य स्थाने चकारः अस्तु धन्यवादः भगिनि इदानीं सुजाता भगिनि वदतु तर्हि आदेशः अस्ति वा आगमः अस्ति वा लोपः अस्ति वा अत्र
आदेशः अस्ति महोदय
किमर्थम्
चकारस्य तकारस्य स्थाने चकारः आगच्छति
तदा आदेशः भवति वर्णः गच्छति अन्यः वर्णः आगच्छति चेत् आदेशः वर्णः तिष्ठति नूतनवर्णः आगच्छति चेत् आगमः लोपः स्थाने किं भवति
नूतनवर्णम् भवति
नूतनवर्णः न आगच्छति यः वर्णः आसीत् सः वर्णः
तदेव
अपगच्छति इदानीं न दृश्यते तदा एव तत्र लोपः इति भवति अत्र लोपः अस्ति वा
लोपः नास्ति
नूतनवर्णः न आगच्छति चेत् लोपः न भवितुम् अर्हति लोपः तत्र नूतनवर्णः न आगच्छति अत्र तु नूतनवर्णचकारः आगतः अस्ति खलु
नूतनचकारः
अतः लोपः नास्ति तर्हि लोपः नास्ति प्रकृतिभावः नास्ति आगमः नास्ति केवलम्
आदेशः
एव अस्ति समीचीनम् अस्तु इदानीम् अग्रे करोतु भगिनि क्षम्यतां तत्र आश्चर्य तत्र श्लोकं पठतु भगिनि तर्हि
श्लोकं किमस्ति
द्वितीयाध्याये
द्वितीयाध्याये 21
29 भगिनि
29 महोदय
अहं पूर्वमपि प्रेषितवान् तत्र
आश्चर्य
एकनिमिषं भगिनि तत्र सर्वे जानन्ति वा तत्र जालपुटे तत्र एकं जालपुटमस्ति यत्र तत्र व्याकरणविषयाः तत्र सम्यक् रीत्या स्थापिताः सन्ति भगवद्गीताश्लोकानां स्मरन्ति वा तत्र पूर्वं तत्र लिङ्क् प्रेषितवान् किन्तु एकवारं तत्र वाट्साप् मध्ये अहं प्रेषयामि तत्र सर्वे तत्र अस्तु एकनिमिषः तत्र
गीता
सत्यं भगिनि एकनिमिषः अहं तत्र प्रेषयामि एतत् बहु समीचीनम् अस्ति यदि एतद् जालपुटं तत्र पश्यन्ति चेत् लाभः अस्ति एकनिमिषः तत्र इदानीं वदतु भगिनि
आश्चर्यवत् पश्यति आश्चर्यवत् वदति तदैव चान्यः आश्चर्यवत् चैन मन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कच्छत् एतदस्ति न महोदय
सत्यं भगिनि तदेव अस्ति भगिनि
आश्चर्यवत् वदति तदैव चान्यः नूनम् आश्चर्यवत् पश्यति कच्छदेव आश्चर्यवत् वदति तदैव चान्यः आश्चर्यवत् चैव न मन्यः न जानामि सम्यक् न उच्चारणं भवति महोदय
अहं वदामि महोदय अस्तु भगिनि आश्चर्यवत् पश्यति कश्चिदेनं आश्चर्यवत् वदति तथैव चान्यः आश्चर्यवत् चैनमन्यः शृणोति श्रुत्वापेनं वेद न चैव कश्चित् आश्चर्यवत् पश्यति कश्चिदेनं इदम् आत्मतत्त्वं केचन जनाः आश्चर्यवत् इव पश्यन्ति केचन अन्ये जनाः आश्चर्यवत्
आत्मतत्त्वस्य कृते आत्मं तत्त्वम् इति आश्चर्यवत् इव वदन्ति. केचन अन्ये जनाः आश्चर्यवत् आश्चर्येण शृण्वन्ति. केचन अन्ये जनाः यद्यपि न शृण्वन्ति परन्तु ते न वेद वेद इति दे डु नाट् अण्डर्स्टाण्ड्
वेद नाम न जानन्ति नाम
न जानन्ति
न
जानन्ति
एनम् इति न तत्र
एनम् इति आत्मतत्त्वम् आत्मा
अयम् आत्मा
अयम् आत्मा शृण्वन्तु शृण्वतः अपि श्रुत्वा अपि श्रुत्वा अपि ते न जानन्ति
न न चैव कश्चित् तेषु न कोऽपि जानाति. तत्र अनेके जनाः तत्र आत्मनः विषये वदन्ति तत्र शृण्वन्ति किन्तु न कोऽपि आत्मा इत्युक्ते
जानाति वा
किं भगिनि
तस्य अर्थं न जानाति इति
नाम आत्मनः न जानाति
किम् इति न जानाति
ओ किम् इति न जानाति वा
नाम तत्र बहुवारं वयम् आत्मा आत्मा इति वदामः खलु किन्तु वयं जानीमः वा तत्र आत्मा इत्युक्ते
अस्माकं प्रत्यग् एव
प्रत्यगात्मा
एव आत्मा
प्रत्यग्ज्ञानं नास्ति खलु तत्र
आं महोदय
अनुभवात्मकं नास्ति अतः तत्र न विद्मः नाम न जानाति इति तत्र भेद इति न जानन्ति समीचीनम् अस्तु धन्यवादः भगिनि उत्तममस्ति तर्हि तत्र अग्रे अस्तु समयः अपि जातः किन्तु एतादृशः अभ्यासः कुर्मः अग्रे दत्तमस्ति तर्हि तत्र गृहपाठरूपेण किञ्चित् तत्र सर्वे पश्यन्तु तत्र आगमः वा लोपः वा आदेशः वा इति किञ्चित् दृष्ट्वा श्लोकमपि दृष्ट्वा आगच्छन्तु समीचीनं भवति अग्रिमे वर्गे. अस्तु तर्हि तत्र अन्ते तत्र कोऽपि तत्र अस्तु कः वदति तत्र वेदा भगिनी वदति वा अन्ते प्रार्थना
महोदय एकनिमिषम् एकनिमिषं महोदय क्षम्यता पूर्णमिदं पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. सर्वेभ्यो नमस्कारः. शुभदिनं शुभरात्रिः अस्तु.